हिरण्यवर्णाभरिणीम् सुवर्णरजतस्रजा चन्द्राम् हिरण्मयीम् लक्ष्मीम् जातवेदो महावह ताम् महावह जातवेदो लक्ष्मीमनभगामिनी यस्याम् हिरण्यम् विन्देयङ्गामश्वम् पुरुषानहम् अश्वपूर्वाम् रथमध्याम् हस्तिनादप्रबोधिने श्रियम् देवीमुपह्वये श्रीर्मा देवीर्जुषता काम् सोऽस्मिताम् हिरण्यप्राकारमाद्राम् ज्वलन्तीम् तृप्ताम् तर्पयन्तीम् पद्मे स्थिताम् पद्मवर्णान्तामिहोपह्वये श्रियम् चन्द्राम् प्रभासाम् यशसा ज्वलन्तीम् श्रियल्लोके देवदृष्टामुदाराम् ताम् पद्मिनीमीम् शरणमहम् प्रपद्ये अलक्ष्मीर्मे नश्यताम् त्वाम् वृणे आदित्यवर्णे तपसोऽधिजातो वनस्पतिस्तव वृक्षोऽथ बिल्वः तस्य फलानि तपसानुदन्तु मायान्तरायाश्च बाह्या अलक्ष्मीः उवैतु माम् देव सह कीर्तिश्च मणिना सह प्रादुर्भूतोऽस्मि राष्ट्रेऽस्मिन् कीर्तिवृद्धिम् दधातु मे क्षुत्पिपासामलाम् ज्येष्ठामलक्ष्मीर्नाशयाम्यहम् अभूतिमसवृद्धिम् च सर्वान्यन्मुत मे गृहात् गन्धद्वारान् तु राधर्षान् नित्यपुष्टाम् करिष्ये ईश्वरेकम् सर्वभूतानाम् तामिगोपह्वजे श्रियम् मनसः काममाकोतिम् वाचः सत्यमशीमहि पशूनाम् रूपवर्णस्य मयि श्रेश्रयताम् यशः कर्दमेन प्रजाभूता मयि सम्भव कर्दमा श्रियम् वादय मे कुले मातरम् पद्ममालिनी आपसृजन्तु स्निग्धा निचिक्ले तपस मे गृहे निच देवे मातरम् श्रियम् वादय मे कुले आर्द्राम् यः करणीम् यष्टिम् पिङ्गलाम् पद्ममालिनीम् चन्द्राम् हिरण्मयीम् लक्ष्मीम् जातवेदो महावह आर्द्राम् पुष्करणीम् पुष्टिम् सुवर्णाम् हेममालिनीम् सूर्याम् हिरण्मयीम् लक्ष्मीम् जातवेदो महावह ताम् महावह जातवेदो लक्ष्मीमनपकामिनी यस्याम् हिरण्यम् प्रभूदङ्गावो दास्योऽश्वान् विन्देयम् पुरुषानहम् ॐ महादेव्यै च विद्महे विष्णुपत्नी च धीमहि तन्नो लक्ष्मीः प्रचोदयात् ॐ महादेव्यै च विद्महे विष्णुपत्नी च धीमहि तन्नो लक्ष्मीः प्रचोदयात्।